ఆపమాపమపస్సర్వాః అస్మాదస్మాదితో ముతః అగ్నిర్వాయుశ్చ సూర్యశ్చ సహసం చస్కరర్ధియా వాయువశ్వానశ్మిపతయః మరీచ్యాత్మానో అద్రుహః దేవే భువనసూవరే పుత్రవత్వాయ మే సుత మహానాం నిర్మహాభానా మహసో మహసస్వః దేవే పర్జన్యసూవరే పుత్రవత్వాయ మే సుత అపాష్ణుష్ణిమపారక్షః అపాష్ణుష్ణిమపారఘం అపాగ్రామపజావర్తిం అపదేవే రితోహిత వజ్రం దేవే రచేతాగశ్చ భువనం దేవసోవరే ఆదిత్యానదితిం దేవే యోనినోర్ధ్వముదేశత భద్రం కర్ణే విశృణుయామదేవాః భద్రం పశ్యేమాక్షభిర్యజత్రాః స్థిరైరంగైస్తుష్టువాగుంసస్తనూభిః యశేమ దేవహితం యతాయుః స్వస్తి న ఇంద్రో వృద్ధశ్రవాః స్వస్తి నః పూషా విశ్వవేదాః స్వస్తి నస్తాక్షో అరిష్టనేమిః స్వస్తి నో బృహస్పతిర్దధాతు కేతవో అరుణాశశ్చ ఋషయో వాతరశనాః ప్రతిష్టాగుం శతథాహే సమాహితాసో సహస్రధాయసం శివానశ్శంతమా భవంతు దివ్యా ఆప ఓషధయః సుమృడీకా సరస్వతే మా దేవ్యోమశ్వేద పుష్పవాన్ ప్రజావాన్ పశుమాన్ భవతి చంద్రమాపాం పుష్పం పుష్పవాన్ ప్రజావాన్ పశుమాన్ భవతి య ఏవం వేద యోపామాయతనం వేద ఆయతనవాన్ భవతి అగ్నిర్వా అపామాయతనం ఆయతనవాన్ భవతి యో అగ్నేరాయతనం వేద ఆయతనవాన్ భవతి ఆపో వా అగ్నేరాయతనం ఆయతనవాన్ భవతి య ఏవం వేద యోపామాయతనం వేద ఆయతనవాన్ భవతి వాయుర్వా అపామాయతనం ఆయతనవాన్ భవతి యో వాయోరాయతనం వేద ఆయతనవాన్ భవతి ఆపో వై వాయోరాయతనం ఆయతనవాన్ భవతి య ఏవం వేద యోపామాయతనం వేద ఆయతనవాన్ భవతి అసౌ వై తపన్నపామాయతనం ఆయతనవాన్ భవతి యో ముష్యతపత ఆయతనం వేద ఆయతనవాన్ భవతి ఆపో వా అముష్యతపత ఆయతనం ఆయతనవాన్ భవతి య ఏవం వేద యోపామాయతనం వేద ఆయతనవాన్ భవతి చంద్రభావ అపామాయతనం ఆయతనవాన్ భవతి యశ్చంద్రమస ఆయతనం వేద ఆయతనవాన్ భవతి ఆపో వై చంద్రమస ఆయతనం ఆయతనవాన్ భవతి య ఏవం వేద యోపామాయతనం వేద ఆయతనవాన్ భవతి నక్షత్రాణి వా అపామాయతనం ఆయతనవాన్ భవతి యో నక్షత్రాణామాయతనం వేద आयतनवान् भवति आपो वै नक्षत्राणामायतनम् आयतनवान् भवति य एवं वेद योपामायतनम् वेद आयतनवान् भवति पर्जन्यो वा अपामायतनम् आयतनवान् भवति पर्जन्यस्यायतनम् वेद आयतनवान् भवति आपो वै पर्जन्यस्यायतनम् आयतनवान् भवति य एवं वेद योपामायतनम् वेद आयतनवान् भवति संवत्सरो वा अपामायतनम् आयतनवान् भवति यः संवत्सरस्यायतनम् वेद आयतनवान् भवति आपो वै संवत्सरस्यायतनम् आयतनवान् भवति य एवं वेद यो ओप्सुनाभम् प्रतिष्ठिताम् वेद प्रत्येव तिष्ठति इमे वै लोका अप्सु प्रतिष्ठिताः तदेशाभ्यनोक्त अपागुंधसमुदयगुंसन् सूर्ये शुक्रगुं समाभृतम् अपागुंधसस्य यो रसः तम् वो गृह्णाम्युत्तममिति इमे वै लोका अपागुं रसः ते मुष्मिन्नादित्ये समाभृताः जानुदग्निमुत्तरवेदेङ्खात्वा अपाम् पूरयित्वा कुल्पदग्रम् पुष्करवर्णै पुष्करदण्डै पुष्करैत्यसग्रस्थीर्य तस्मिन्विहायसे अग्निम् प्रणीयोपसमाधाय ब्रह्मवादिनो वदन्ति कस्मात् प्रणीतेयमग्निः चीयते सा प्रणीतेयमप्सु ह्ययम् चीयते असो भुवनेऽप्यनाहिताग्निरेताः तमभित एता अभीष्टका उपदधाते अग्निहोत्रे दर्शपूर्णमासयोः पशुपन्दे चातुर्मास्येषु अथो आहुः सर्वेषु यज्ञक्रतुष्विते एतद्धस्वपा आकुष्यण्डिलाः कमग्निम् चिनुते सत्रियमग्निम् चिन्वानः संवत्सरम् प्रत्यक्षेण कमग्निम् चिनुते सावित्र्यमग्निम् चिन्वानः अमुमादित्यम् प्रत्यक्षेण कमग्निम् चिनुते नाचिकेतमग्निम् चिन्वानः प्राणान् प्रत्यक्षेण कमग्निम् चिनुते चादुर्होत्रियमग्निम् चिन्वानः ब्रह्म प्रत्यक्षेण कमग्निम् चिनुते वैश्वसृजमग्निम् चिन्वानः शरीरम् प्रत्यक्षेण कमग्निम् चिनुते उपानुवाक्यमाशुमग्निम् चिन्वानः इमान् लोकान् प्रत्यक्षेण कमग्निम् चिनुते इममारुणकेतुकमग्निम् चिन्वान इति य एवासो इतश्चामुतश्चाव्यदीपाति तमिति योऽग्ने मिथूया वेद मिथुनवान् भवति आपो वा अग्ने मिथूयाः मिथुनवान् भवति य एवमिदमासंसलिलमेव स प्रजापतिरेकः पुष्करपर्णे समभवत् तस्यान्तर्मनसि कामः समवर्तत इदगुं सृजेयमिति त तस्माद्यत्पुरुषो मनसाभिगच्छते तद्वाचा वदते तत्कर्मणा करोति तदेशाभ्यनोक्त कामस्तदग्रे समवर्तताधे मनसोरेद प्रथमं यदासीत् सदो बन्धुमसति निरविन्दन् हृति प्रतीष्या कवयो मनीषेते उपैनन्ददुपनमते यत्कामो भवति य एवं वेद सतपोदप्यद सतपस्तप्त्वा शरीरमधूनुत तस्य यन्मागुं समासीत् ततोरुणा केतवो वादरशनार्षय उदतिष्ठन् येन घाः ते वै घानसाः ये बालाः ते बालघिल्याः यो रसः सोपाम् अन्तरतः कूर्मम् भूतकम् सर्पन्तम् तमब्रवीद् मम वै त्वम् भागुंस समभूत् नेत्यब्रवीत् पूर्वमेवाहमिहासमिते तत्पुरुषस्य पुरुषत्वम् स सहस्रशीरुषा पुरुषः सहस्राक्षः सहस्रपात् भूत्वोदतिष्ठत् तमब्रवीद् त्वम् वै पूर्वगुम् समभूः त्वमिदम् पूर्वः कुरुष्वेति स इत आदायावः अञ्जलिना पुरस्तादुपादधात् एवाह्येवेति तद आदित्य उदतिष्ठत् सा प्राजीदिक अधारुणः केतुर्दक्षिणत उपादधात् एवाह्यग्न इति ततो वा अग्निरुदतिष्ठत् सा दक्षिणादिक अधारुणः केतुपश्चादुपादधात् एवाहि वायो इति ततो वायुरुदतिष्ठत् सा प्रतिचेदिक अधारुणः केतुरुत्तरत उपादधात् एवाहीन्द्रेते ततो वा इन्द्र उदतिष्ठत् सोदेजेदिक अधारुणः केतुर्मध्य उपादधात् एवाहि भूषन्निते ततो वै भूषोदतिष्ठत् श्रेयन्दिक अधारुणः केतुरुपरिष्टादुपादधात् एवाहि देवाहिते ततो देवमनुष्याप्पितरः गन्धर्वाप्सरसश्चोदतिष्ठन् सोर्ध्वादिग या विपृशो विपरावदन् ताभ्योऽसुरा रक्षागुंसि पिशाचाच्चोदतिष्ठन् तस्मात्ते पराभवन् विप्रुडुद्भ्यो हि ते समभवन् तदेशाभ्यनोक्ता आपोह यद्बृहतेर्गर्भमायन् दक्षम् ददाना जनयन्ते स्वयम्भुम् तत इमेद्यसृजन्त सर्गाः अद्भ्यो वा इदगुम् समभूद् तस्मादिदगुम् सर्वम् ब्रह्म स्वयम् विदे तस्मादिदगुम् सर्वगुम् शिथिलमिवाध्रुवमिवाभवत् प्रजापतिर्वावदत् आत्मनात्मानम् विधाय तदेवानुप्राविशत् तदेशाभ्यनोक्त विधाय लोकान् विधाय भूतानि विधाय सर्वा प्रदिशो दिशश्च प्रजापतिप्रथमजा ऋतस्य ಆತ್ಮನಾತ್ಮನಮಭಿಸಂವಿವೇಚೇತಿ ಸರ್ವಮೇವೇದಮಾಪ್ಸ್ವಾ ತದೇವಾನುಪ್ರವಿಶತಿ ಯ ಏವಂ ವೇದ.